ॐ येन धौतागिरःपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। नमस्कारः महोदय।
नमस्कारः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र स्वरसन्धिः। अतः तत्र एतावत् वयम् उदाहरणानि दृष्टवन्तः, तत्रापि नियमानपि ज्ञातवन्तः, किन्तु सूत्रदृष्ट्या अपि किञ्चित् ज्ञास्यामः। तत्र व्याकरण साक्षात् व्याकरणवर्गः इति नास्ति अस्माकं, यतोहि तत्र प्रारम्भिकवर्गः अस्ति अपि, तत्र मम ज्ञानमपि व्याकरणविषये किमपि नास्ति। अतः तत्र केवलं तत्र परिच्छेत्वेन यत् स्वरूपमहोदयस्य करपत्रम् अस्ति तत् करपत्रं पठामः, अपि तत्र कानि सूत्राणि अत्र भवन्ति, तेषां प्रभावः कथं भवति इति, एतत् सर्वं किञ्चित् तस्याः आस्वादः, तेषाम् आस्वादः भवतु इति चिन्तनम्। अतः तत्र प्रथमतया तत्र करपत्रं 1 यदि क्लिक् कुर्वन्ति चेत् तत्र पाणिनि ग्रामर् इति प्रैमर् पाणिनि इति टैटल् अहं स्थापितवान्, किन्तु तत्र अस्माकं मूलयन्त्राणि इति शीर्षकम् अस्ति तत्र। तत्र प्रथम अस्ति माहेश्वराणि सूत्राणि, द्वितीयमस्ति पाणिनीयं सूत्रं कथं पठनीयम् इति। अतः प्राय तथा आरभ्य पठामश्चेत् सर्वं समीचीनं भवति इति मन्ये। अतः तत्र पाणिनीयं सूत्रं कथं पठनीयम् इति आरम्भं कुर्मः। तर्हि तत्र अस्माकं मूलयन्त्राणि इति तत्र द्वितीयपाठः अस्ति पाणिनीयं सूत्रं कथं पठनीयम् इति। सर्वेषां पार्श्वे अस्ति वा?
आं महोदय।
अस्तु अस्तु, समीचीनं। तर्हि अस्तु, तर्हि तत्र उषा भगिनी भवती आरम्भं करोति वा?
आं महोदय। पाणिनीयं सूत्रं कथं पठनीयम्? यण्सन्धिं बहवः जानन्ति, यथा यदि योगः अपि, आवरणे इय भवति, यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति, इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते। अत्र यण्सन्धिविषये दत्तमस्ति महोदय, उदाहरणरूपेण यदि योगः अपि, यदि अन्तिमवर्ण अस्ति इ अपि, अपि अकार अस्ति तत्र,
यदि इति पदस्य अन्तिमवर्णः इकारः, अपि इति पदस्य प्रथमवर्णः अकारः,
इ योगः अकारः यण्सन्धि कार्यं किमपि कार्यं भूत्वा यकार इति आगच्छति, इकारस्य स्थाने यकारः आगच्छति, तत् कार्य तत्र एकं कार्यं भवति। किं कार्यम्?
अतः अपि तत्र कार्यं, तत्र वयं जानीमः आदेशः नाम इकारस्य स्थाने आदेशः, एकः वर्णः गच्छति तस्मिन् स्थाने नूतनवर्णः आगच्छति इति अस्ति चेत् आदेशः इति वयं जानीमः। समीचीनम्। अस्तु अग्रे
व्याकरणे
कुत्र अस्ति पठनं? करपत्रे
करपत्रं 1 इति यदि भवती क्लिक् कृतवती वा?
अहं न पश्यामि।
तत्र द्वितीयशीर्षकमस्ति पाणिनीयं सूत्रं कथं पठनीयम्,
स्वरसन्धिसूत्रसहितदृष्टि इति लिखितम् अस्ति।
तद् द्वितीयकरपत्रम् अस्ति भगिनि, प्रथमकरपत्रं तस्य उपरि अन्यत् करपत्रम् अस्ति, पश्यतु करपत्रं 1 इति।
एकनिमिषम्, अत्र प्रथमकरपत्रम् अस्माकं मूलयन्त्राणि
तदेव।
तत्र प्रथमतया माहेश्वराणि सूत्राणि इति अस्ति खलु, द्वितीयपाठः पाणिनीयं सूत्रं कथं पठनीयम् इति अस्ति खलु, तत् तत् क्लिक् करोतु भगिनि.
ओ
प्राप्तं वा?
हा ओके आगतम्. अहं तु किं लिङ्क् यत् प्रेषितं द्वितीयं कर द्वितीयकरपत्रस्य तत् उद्घाटितवती. तत्र तु
समीचीनम् अस्तु. इदानीं प्राप्तं. समीचीनं भगिनि.
इदानीं प्राप्तं. पाणिनीयं सूत्रं कथं पठनीयं
तदेव भगिनि. तदेव तदेव. अस्तु अग्रे उषा.
पूर्वं
व्याकरणे व्याकरणे
व्याकरणे कार्याणि एतादृशानि भवन्ति. एतादृशानि इत्युक्ते अधः दत्तमस्ति तत्र. आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः यदि योगः अपि यदि इति पदस्य अन्तिमवर्णः इकारः अपि इति पदस्य प्रथमवर्णः अकारः ई योग अकारः सन्धि भूत्वा यकारः इति आगच्छति. अनन्तरं यद्यपि इति पदं प्राप्नुमः. आदेशः आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य नूतनवर्णस्य उदयः भवति. आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् उदाहरणरूपेण पठन् योगः आगच्छति. पठन् पठन् प्रथमपदस्य अन्तिमवर्णः नकारः. आगच्छति इति पदस्य प्रथमवर्णः आ. न आगमः
नकारस्य आगमः
नकारस्य आगमः. पठन्ना गच्छति इत्युक्ते नूतन अन्य एक वर्णः आगच्छति.
यत्र नूतनवर्णः आगच्छति किन्तु ये यानि वर्णानि ये वर्णः पूर्वं
स्थित
आसन् तिष्ठन्ति तत्र किमपि न कोऽपि वर्णः न अपगच्छति चेत् तत्र आगमः इति वदामः. तत्र पठन् मध्ये अन्तिमनकारः तिष्ठति, आगच्छति मध्ये अकारः आदौ यः आकारः अस्ति सः सपि तिष्ठति, किन्तु न इति तस्य आगमः भवति अतः पठन् आगच्छति इति
पदं भवति. मित्रवत् मित्रवत्
मित्रवत् समीचीनं.
लोपः वर्णस्य अदर्शनं. बालकः योगः इच्छति. तत्र विसर्ग अनन्तरं इकार अस्ति. विसर्गस्य लोपः भवति. लोपः भूत्वा बालक इच्छति इति रूपं निष्पद्यति.
तर्हि तत्र लोपः एकः वर्णः अपगच्छति अदर्शनं न दृश्यते इति अस्ति. समीचीनं भगिनि धन्यवादः. अतः एतत् कार्यं कार्यत्रयमस्ति इति वयं तत्र पुस्तके अपि पठितवन्तः. आदेशः आगमः लोपः इति एतावत् यत् लिखितं यत्तत् सर्वं जानीमः. कोऽपि क्लेशः नास्ति इति मन्ये एतावत्. अस्तु समीचीनम्. अस्तु अग्रे तत्र उमामीनाक्षी भगिनी अग्रे पठति वा?
ओके किम् अस्ति कस्यचित् ततः न आरभ्य
समीचीनं ततैव.
कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यण्सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रम् अस्ति. सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम. यण्सन्धेः विधिसूत्रम् इदम्. इको यणचि 6176. इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायां 6171 इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्।
अत्र एतावत् वयं प्रायशः तत्र यदि व्याकरणं जानीमः अस्य अवगमनं भवति, किन्तु वयं चिन्तयामः वयं किमपि न जानीमः। अतः तत्र ईको यण्चि इति एतत् सर्वम् अस्ति, तत्र यत् उक्तमस्ति नाम इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तम् इति त्रिपदमस्ति सूत्रे। अचि तत्र इति अस्ति, तत्र षष्ट्यन्तं प्रथमान्तम् अपि सप्तम्यन्तम् साधारणरीत्या तत्र सप्तमी विभक्ति अस्ति चेत् तत्र अस्माकं तस्य अर्थः कः? तत्र गृहे बालकः अस्ति इति यदि शृण्मः तर्हि तत्र गृहे इति विभक्ति सप्तमी खलु। हा खलु, तत्र अधिकरणं, तत्र स्थानम् इति चिन्तयामः। किन्तु अत्र सप्तम यन्तम् इति अचि इति अस्ति, षष्ट्यन्तम् इति अस्ति, प्रथमान्तम् इति अस्ति, अतः तत्र किमर्थं तत्र विभक्ति आगच्छति इति, तत्र अच् इति स्थाने किमपि अन्यत् भवति वा इति चिन्तनं भवेत्। किन्तु तत्र व्याकरण पाणिनेः तत्र अष्टाध्यायी मध्ये तत्र विभक्तेः तत्र साधारण अर्थः नास्ति, अन्यरीत्या पारिभाषिकः अर्थः भवति, अग्रे गत्वा पश्यामः। किन्तु ईको यणचि इति साक्षात् सूत्रं, संहितायाम् इति तस्य अन्यत् सूत्रस्य अधिकारः इत्युक्ते किम् इति अग्रे पश्यामः। अपि अनुवृत्तिसहितसूत्रम् इति अपि अस्ति अन्ते। अनुवृत्तिसहितं सूत्रम् इत्युक्ते किम् इति किञ्चित् वदति वा उमामीनाक्षिभगिनी अथवा अन्य कोऽपि वदति वा?
अनुवृत्ति इत्युक्ते किं तद् वक्तव्यं? हा
किञ्चित् वदतु।
अनुवृत्ति इत्युक्ते किं पूर्वं किमपि उक्तम् अस्ति पुनः पुनः न वक्तुम् इच्छति पाणिनिमहोदये, अतः ततः पदानि स्वीकृत्य अहं चिन्तयामि सूत्रस्य सम्पूर्णं
इति अस्ति। अस्तु, समीचीनं भगिनि, तथैव अस्ति। तत्र लौकिक उदाहरणं साधारणतया तत्र किम् अस्ति, तत्र रामः वदति अहम् आपणं गच्छामि, रामः वदति अहम् आपणं गच्छामि, तदनन्तरं श्यामः वदति अहमपि इति, श्यामः केवलं वदति अहमपि इति वदति। तेन वयम् अवगच्छामः वा तत्र श्यामः किम् उक्तवान् इति?
हा, अवगन्तुं शक्नुमः। एतत् मी टु फिनोमिनन् अस्ति न?
हा हा, अस्तु, समीचीनं। किन्तु यदि रामः उक्तवान् तस्मिन् समये एषः तत्र रामः उक्तवान्, तदनन्तरं नूतनतया कोऽपि आगतवान्, तदनन्तरं श्यामः उक्तवान् अहमपि, किं नूतनपुरुषः तत्र सः अवगच्छति वा श्यामः किम् उक्तवान् इति?
न,
न। अतः तत्र पूर्ववदनस्य पूर्ववाक्यस्य
अवगन्तुं शक्नोति।
अतः पूर्ववाक्यस्य अवगमनं स्मरणं भवति चेद् एव अहमपि इति पदस्य अर्थः इति वाक्यस्य अर्थः भवति। अपि अहमपि इत्युक्ते तत्र तस्य दीर्घवाक्यं कृत्वा तस्य अर्थः नाम अहमपि आपणं गच्छामि इति फलितार्थः भवति। तथैव अत्र अनुवृत्तिसहितसूत्रं नाम अनुवृत्तिसहितसूत्रं दीर्घमस्ति, सूत्रस्य अपेक्षया अनुवृत्तिसहितसूत्रं दीर्घमस्ति, यतोहि अन्यत् पूर्वं यदुक्तं तदपि अत्र स्थापनीयं भवति इति कृत्वा अतः तत्र अनुवृत्तिसहितसूत्रं, यथा तत्र श्यामः वदति अहमपि, किन्तु अर्थः अस्ति अहमपि आपणं गच्छामि इति। तथैव तत्र ईको यणचि इति एव सूत्रमस्ति, किन्तु तत्र अनुवृत्तिसहितसूत्रं नाम पूर्वस्थितान् तत्र स्थितानि सूत्राणि अपि तत्र यदि स्थापयामः इत्येषाम् आवश्यकता अस्ति तत्र ईकः यण अचि संहितायाम् इति तत्र अनुवृत्तिसहितसूत्रं भवति. तत्र कदा अनुवृत्ति किं तत्र कथम् अनुवृत्तिसहितसूत्रं भवति अपि सूत्रे तत्र विभक्तेः अर्थः कः इति एतत् सर्वम् अग्रे ज्ञास्यामः. केवलम् उदाहरणार्थं तत्र कार्यम् अस्माकं पाणिनेः सूत्रस्य अवगमनार्थं किं किं करणीयम् इति ईको यणचि इति सूत्रस्य आधारेण तत्र परिचयं ददाति स्वरूपमहोदय. अस्तु समीचीनं भगिनि. अस्तु हा तत्र अधोभागे अपि पठतु उपरितने सूत्रे इति वाक्यत्रयं तत्र पठतु तदनन्तरम् अन्य कोऽपि पठेत्. हा उमा मीनाक्षी भगिनि उपरितने सूत्रे इति तदपि पठतु.
कण्टिन्यू कर्तव्यं वा अन्य कोऽपि पठतु?
हा भवति एव तत्र उपरितने सूत्रे इति.
हा उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः. एषु त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. तदपि क्लिक् करणीयं वा?
न न इदानीं मास्तु, वयं जानीमः खलु तत्र इक् मध्ये किं किम् अस्ति.
इक् मध्ये माहेश्वरसूत्रानुगुणम् अयुं लृक् अतः अविहाय इ ऊर्
लृ लृ समीचीनं.
समीचीनं
हा समीचीनम् अपि
अनन्तरं यण् हा यवरल
हा नाम तत्र पञ्चमे पञ्चमे सूत्रे हायवरट् इति अस्ति. तत्र ह विहाय हम् हकार विहाय यवर तदनन्तरम् अग्रिमे सूत्रे लकारः. समीचीनं.
अपि
अच् इत्युक्ते
किं स्वरः
स्वरः इति अतः जानीमः. अतः तत्र प्रत्याहाराः आगच्छन्ति इति अपि अत्र अवगच्छामः. समीचीनम्. अस्तु अग्रेसरं धन्यवादः भगिनि. अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा?
आम् इको यणचि इति सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्दिशन्ति. हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां संख्या न्यूनातिन्यूनं स्यात्. तर्हि संक्षेपार्थं कोड् निर्मितं पाणिनिना. कोड् इत्यस्य माध्यमं किं? विभक्तिः. विभक्तिपद्धतिः का इति अग्रे पश्ये.
तर्हि किञ्चित् वदतु तत्र किमस्ति.
सूत्रस्य यथा पाणिनि अष्टाध्यायी अष्टाध्यायीग्रन्थे बहूनि सूत्राणि सन्ति. सूत्राणि कार्यस्य निर्देशं करोति.
नाम तत्र सूत्रम् इत्युक्ते
तस्य भाषा
कदा किं करणीयम् इति निर्देशः भवति.
तस्य भाषा हैलि क्वालिफैड् हैलि कोडिफैड् अस्ति. कोडिफैड् अस्ति कोडिफैड् सूत्रं लघु लघु सन्ति.
तत्र केवलम् इको यणचि इति एव अस्ति सूत्रं.
तत्र इको यणचि वृत्तिरेचि
सर्वं प्रत्येकं सूत्रं बहु लघु अस्ति. अपि येन तत्र
केवलं
ग्रन्थं भगिनि
केवलं त्रीणि पदानि
हा त्रीणि पदानि सन्ति अति अति लघु अस्ति अपि आहत्य
लघु
सम्पूर्णग्रन्थः अपि तत्र लघु अस्ति अष्टाध्यायी इति तत्र प्रायशः तत्र चतुस्सहस्रं सूत्राणि सन्ति इति मन्ये किन्तु सर्वाणि प्रत्येकं सूत्रम् अतिलघु अस्ति अतः आहत्य तत्र कति पदानि सन्ति चेत् प्रायशः तत्र अष्टसहस्रपदानि एव सन्ति अथवा दशसहस्रपदानि एव सन्ति तावदेव किन्तु तेन माध्यमेन तत्र सम्पूर्णसंस्कृतभाषायाः विवरणं तत्र यत्किमपि पदं संस्कृतभाषायाम् अस्ति तस्य निर्माणं कथं भवति इति ते अस्य आधारेण कर्तुं शक्नुमः खलु
आम् तस्य कृते प्रत्याहारस्य उपयोगः महोदय
प्रत्याहारस्य उपयोगः अस्ति अपि तत्र अन्यत् तत्र कोड् इत्युक्ते प्रत्येकं वाक्ये तत्र विभक्तेः उपयोगं कृत्वा तत्र प्रत्येकपदस्य कार्यं किम् इति तत्र निर्देशः भवति अतः तत्र साधारणविभक्ति अर्थः अत्र नास्ति विभक्तेः नूतनार्थः अत्र आगच्छति अतः सप्तमी इत्युक्ते अन्य तस्य अर्थः भिन्नः किन्तु आदिकरणम् इति न भवति पञ्चमी इत्युक्ते तस्य अर्थः तत्र पृथक् इति न भवति अतः तत्र विभक्तेः नूतन अर्थाः अत्र सन्ति ये तत्र यस्य तत्र तैः तत्र विभक्ति नूतन अर्थैः तत्र पाणिनिः सूत्रं रचयति तत्र विभक्तेः अर्थः कः इति यदि ज्ञास्यामः तथा यत् सूत्रमस्ति तस्य अर्थः फलितार्थः सम्यक् रीत्या ज्ञातुं शक्नुमः नो चेत् तत्र इको एनच् इति तत्र किमपि अस्ति किन्तु तत्र यथा तत्र कोडेड् मेसेज् अस्ति किन्तु अस्माकं पार्श्वे तत्र की नास्ति चेत् केवलं तत्र अस्ति किन्तु किं वदति इति न जानीमः तथैव भवति अतः इको एनचि तावदेव वक्तुं शक्नुमः किन्तु तस्य अर्थः केवलम् अर्थः तत्र कथं तस्य अन्लाक् तत्र करणीयमिति ज्ञास्यामः तदेव अर्थः कः इति ज्ञातुं शक्नुमः अस्तु अपि तत्र स्मर्तव्यमस्ति नाम तत्र पाणिनिः व्याकरणं किमर्थम् अष्टाध्यायी किमर्थं रचितवान् या भाषा पूर्वम् आसीत् तस्य विवरणं नाम संक्षिप्तरूपेण तस्य व्याकरणस्य विवरणं दातुम् एतत् सर्वं कृतवान् अपि अष्टाध्यायी तत्र केवलं तत्र लिखितग्रन्थः नासीत् केवलं तत्र गुरुणा शिष्याय तत्र वचसा तत्र गतः ग्रन्थः अस्ति एषः नाम तत्र गुरुः वदति शिष्यः शृणोति स्मरति अतः तत्र केवलं श्रवणेन
मुखोद्गतं पद्धतिम् अनुसृत्य
अतः तत्र केवलं शृणुमश्चेत् तत्र लघु भवति चेत् स्मरणं सुलभं भवति
सरलं भवति
सरलं भवति अतः तत्र प्रत्येकं सूत्रम् अति अति लघु अस्ति तत्र प्रथमकार्यं तत्र तस्मिन् काले प्रथमकार्यम् आसीत् तत्र अष्टाध्याय्येः तत्र कण्ठस्थीकरणं प्रथमतया केवलं कण्ठस्थीकरणं तदनन्तरं सूत्रस्य अर्थः कः इति तस्य अवगमनं किन्तु वयं तत्र प्रौढाः इति कृत्वा वयं प्रत्येकं सूत्रं यदि पश्यामः तस्य अर्थः कः इति एव ज्ञात्वा एव तदनन्तरं स्मर्तुं तत्र उद्युक्तः स्मः यदि न अवगच्छामः तत्र न स्मरामः किन्तु तत्र बाल्यकाले रीतिः किञ्चित् भिन्ना आसीत् नाम बाल्यकाले केवलं कण्ठस्थीकरणं तदनन्तरं तस्य सूत्राणाम् अवगमनम् इति तद्द्वितीयकार्यम् इति आसीत्। अस्तु अग्रे सरामः। तर्हि तत्र अग्रे पल्लवी भगिनी अग्रे पठति वा
महोदय? बहुधा ऐसे होता है कि जब कोई चीज़ मुखोद्गत की जाती है तो कभी कभी ऐसा होता है कि उसमें मतलब कुछ परे विकल्प भी या फिर कुछ क्या कहते हैं जैसे भी मेरे मुझ में कुछ कमी है तो मैं उसमें कुछ कम ज़्यादा कर सकती हूँ वो सूत्रों में, तो ऐसे नहीं हुआ क्या तभी?
हाँ हाँ उत्तम प्रश्न है भगिनी, उत्तम प्रश्न। हाँ तत्र अस्तु तत्र किम् एतत् पाणिनेः व्याकरणस्य विशिष्टमस्ति भगिनी, नाम तत्र अनेके तत्र जनाः नूनं तत्र न्यूनं कर्तुं प्रयत्नं कृतवन्तः। तत्र किमर्थं तत्र सहस्र नाम तत्र चतुर्सहस्र सूत्राणि सन्ति, तत्र प्रत्येकस्य सूत्रस्य आवश्यकता अस्ति न वा इति तत्र प्रयत्नं कृतवन्तः इति एव भवतः प्रश्न भवत्याः प्रश्नः खलु भगिनि?
आम् आम्। या फिर उसमें कुछ जैसे अभी कुछ सूत्र है वही मैंने गलत कर दिया क्योंकि मुखोद्गत ही गलत किया है मैंने, तो हो सकता है कि मैं मतलब वो सूत्र ही गलत बोलूं, ऐसे भी हो सकता है।
तादृशी परिस्थिति न भवति यतो हि भगिनी तत्र शिष्या परम्परा आसीत्, अपि तत्र व्याख्या अपि अस्ति, अतः तत्र व्याख्या अस्ति इति कृत्वा तत्र वयं जानीमः तत्र सूत्रे किमस्ति इति ज्ञातुम् इति इदानीं ज्ञातुं शक्नुमः। तस्मिन् सन्दर्भे तत्र प्रायशः प्रत्येकस्य कण्ठस्थीकरणं बहु स्थिरम् आसीत्, अतः ते सम्यक् रीत्या ज्ञातवन्तः इति मन्ये। हा इति चिन्तनं। हा इति
जैसे भी आपने कहा वैसे भी कुछ सूत्र हो सकता है कि एकाद दो सूत्र उसने मतलब जैसे वो निगल ही गए उस सूत्र, ऐसे भी हो सकता है ना?
हा तत्र तादृशं न अभवत् भगिनी, नाम तत्र यत् सः लिखितवान् तत् सम्पूर्णरीत्या अस्माकं पार्श्वे अस्ति इति चिन्तनं, यतोहि तत्र व्याख्येषु तत्र पतञ्जलिमहाभाष्यम् अस्ति, तत्र अपि तत्र सूत्रस्य सूत्राणां तत्र आवलिः अस्ति, अतः तत्र ग्रन्थः सम्पूर्णरीत्या अस्ति इति चिन्तनम् अपि तत्र ग्रन्थस्य न्यूनकरणे अनेके जनाः प्रवृत्ताः आसन्, किन्तु इदानीं पर्यन्तं प्राते अहं कुत्रापि दृष्टवान् ते वदन्ति तत्र प्रायशः पदत्रयं पदचतुष्टयम् एव तत्र न्यूनं कर्तुं शक्तवन्तः तत्र नाम अनेकसहस्रवर्षानन्तरम्, अतः तत्र लघु इत्युक्ते इतः परं लघु न कर्तुं शक्नुमः पाणिनेः सूत्राणां। हा नाम अतिलघु अस्ति तस्य अपि लघ्वीकरणं न भवति। तत्र एतत् कदा अभवत् इति न जानामि, किन्तु तत्र पश्चिम देशे तत्र अमेरिका मध्ये तत्र नोम् चोम्स्की इति एकः अस्ति वैयाकरणः, सः आङ्ग्लभाषायाम् एतादृशी तत्र एतादृशव्याकरणं कथं भवति इति सः सूत्राणि लिखितवान्, किन्तु तत् न्यूनातिन्यूनम् इति न वक्तुं शक्नुमः। तत्र अनेके जनाः तत्र तस्य न्यूनीकरणं कृतवन्तः, अपि इदानीमपि तत्र अतिन्यूनम् अस्ति इति न वक्तुं शक्नुमः। अतः तत्र आङ्ग्लभाषायां पाणिनेः व्याकरणसदृशः व्याकरणम् एकम् अस्ति, किन्तु न्यूनातिन्यूनम् इति न वक्तुं शक्यते, तस्य समीपे एव नास्ति, केवलं तदेव अस्ति। अपि एतत् प्रायशः तत्र त्रिंशत् अथवा चत्वारिंशत् वर्षेभ्यः पूर्वं कृतम् अस्ति तावदेव।
धन्यवादः महोदय।
अन्ये तत्र अन्यासु भाषासु एतादृशव्याकरणं नास्ति इति यावत् अहं जानामि भगिनि, नाम तत्र लाटिन् भाषायाम् अथवा तत्र ग्रीक् भाषायां ये पुराणभाषाः सन्ति तासु एता व्याकरणपुस्तकानि सन्ति, किन्तु सम्पूर्णव्याकरणस्य तत्र सूत्ररूपेण सर्वेषां तत्र सन्दर्भाणां तत्र वर्णनं अन्यासु भाषासु न लभ्यते इति अन्यत् विशिष्टम् अस्ति तत्र. अस्तु अस्तु
सूत्राणां पद्धतिः पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः, पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. एषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. आमां पदव्युत्पत्ति प्रत्येकपद पदः कथम् उत्पन्नः अभवत् तद् पाणिनेः प्रमुखलक्ष्यमासीत्. तर्हि पदा प्रत्येकपदस्य निष्पन्नता कीदृशः अभवत् इति दर्शयितुं सः सूत्राणि विरचितानि.
नाम तत्र तस्य लक्ष्यमासीत् तत्र निर्माणं, पदनिर्माणं कथं भवति, नाम किं किम् उपयुज्य पदस्य निर्माणं कर्तुं शक्नुमः. एकं पदं स्वीकृत्य अन्यत् पदं कदा निर्मातुं शक्नुमः, तत्र धातुं स्वीकृत्य नामपदम् अथवा नामपदं स्वीकृत्य तत्र अन्यत् नामपदम्, एतत् सर्वं कदा कथं कदापि कथं कर्तुं भवेत् इति अतः सूत्रं नाम निर्देशः. अस्तु अग्रे.
सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. प्रत्येकसूत्रे यत्किमपि पदानि सन्ति ते किमपि सूचयन्ति. यथा वर्णस्य आगमः भवति वा अन्यवर्णः तत् स्थाने आगच्छति वा किमपि वर्णस्य लोपः भवति इति इत्यादीनि कार्याणि तत् ते पदानि तानि पदानि सूचयन्ति. कार्यं कीदृशः भवेत् इति सूचनार्थं विभक्तयः प्रयुक्ताः सन्ति. तर्हि
इति दृष्ट्वा पदस्य वयं
ज्ञातुं शक्नुमः किं कार्यं करणीयम्
इति. अस्ति समीचीनम्. अतः अपि विभक्तेः अर्थाः तत्र
भिन्नाः
नाम तत्र यदा वाक्यनिर्माणं कुर्मः तत्र वयं जानीमः तत्र सप्तमी इत्युक्ते अधिकरणम्, अपि तत्र तृतीया इत्युक्ते माध्यमम् अथवा साधनं, द्वितीया इत्युक्ते कर्मपदम् इति विभक्तेः अर्थाः सन्ति, किन्तु तादृश अर्थाः अत्र न सन्ति, अतः भिन्नाः अर्थाः अत्र सन्ति. इदानीम् अग्रे पठतु. तत्र
षष्टिविभक्तिः स्थाने, प्रथमा विभक्तिः आदेशः आगमः वा नामकरणम्. सप्तमी विभक्तिः पूर्वकार्यम्. पञ्चमी विभक्तिः परकार्यम्. तृतीया विभक्तिः संयोजनम्. लोके षष्टिविभक्ति तु सम्बन्धार्थे इति वयं जानीमः परन्तु अत्र षष्टिविभक्त्याः विभक्तेः अर्थः स्थाने इति अस्ति तर्हि यत्किमपि पदं षष्टिविभक्त्याम् अस्ति सूत्रे तस्य उद्देशः अस्ति तत् प्रत्याहारः वा तत् वर्णः इति स्थाने अस्ति तत्र किमपि कार्यं करणीयं तत् स्थाने किमपि कार्यं प्रथमा विभक्ति अस्ति सूत्रे यदि पदं प्रथमा विभक्त्यन्तम् अस्ति तर्हि तस्य उद्देशः अस्ति आदेशः वा आगमः वा नामकरणम् इति किमपि कार्यं न करणीयं क्षम्यतां किं कार्यं करणीयं यथा आदेशः करणीयं वा आगमः करणीयं वा लोपः करणीयं वा केवलं संज्ञा इति
अपि तत्र नामकरणं भवति समीचीनं
सप्तमी विभक्ति अर्थ लोके तु अधिकरणमस्ति परन्तु अत्र पूर्वकार्यम् इति सूचयन्ति यत्किमपि कार्यं करणीयं तत् सप्तमी विभक्त्यन्तं यत् पदमस्ति तस्य पूर्वं करणीयम् इति
तत्र किञ्चित् भिन्नः अस्ति किन्तु पूर्वकार्यम् इति तत्र वयम् अग्रे तत्र बहु स्पष्टतया उक्तं भवति किन्तु नाम तत्र कार्यम् इति तत्र यत् स्थानम् अस्ति तत्र तदेव कार्यम् इति भवति तत्र पूर्वकार्यम् इत्युक्ते यस्य पूर्वं कार्यम् अस्ति तद् पूर्वकार्यं अपि यस्य अत्र कार्यम् इति समयस्य पूर्वं परः इति समयस्य निर्देशः अस्ति स्थानस्य निर्देशः तेव परकार्यम् इति यस्य परः कार्यमस्ति
किमपि
तत् परकार्यम् इति भवति समीचीनं
पञ्चमी विभक्ति निर्दिशति परकार्यं
तृतीया विभक्तिः
संयोजनं किमपि
इति निर्देशः इदानीं तत्र प्रत्येकस्य तत्र यथावत् तत्र स्थाने इत्युक्ते किम् इति न दृष्टवन्तः अतः इदानीम् अग्रे किञ्चित् प्रत्येकस्य विभक्तेः तत्र किञ्चित् विवरणं भवति अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे समीचीनम् अस्तु अग्रे शोभा भगिनि
आं महोदय अग्रे षष्ठीविभक्तिः स्थाने सूत्रे यस्य वर्णस्य प्रत्याहारस्य षष्ठीविभक्तिः भवति सः स्थानी भवति इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति कः वर्णः आयाति तस्य स्थाने इत्युक्ते तस्मिन् एव सूत्रे यः वर्णः प्रत्याहारः प्रथमाविभक्त्यन्तः सः इति उदाहरणमपि पठित्वा उदाहरणार्थम् इको एणचि इति सूत्रम् इकः स्थाने यण् आदेशः भवति इकः षष्ठ्यन्तं यण् प्रथमान्तम् इकः यण् अपि अचि संहितायाम् इति अर्थः तत्र इको एणचि इत्यस्य इदानीं तत्र षष्ठिविभक्तिः तत् पठितवन्तः षष्ठिविभक्ति इति स्थाने इति अर्थे भवति इति इत्युक्ते तत्र सूत्रे यस्य वर्णस्य अथवा प्रत्याहारस्य षष्ठिविभक्तिः भवति सः स्थाने भवति यथा तत्र इक् इति प्रत्याहारः इत्युक्ते इ उ ऋ ल इति ज्ञातवन्तः इदानीम् इक् इति इक् इको इत्यत्र तत्र इकः इत्यस्य इको इति भवति सन्धिकार्याणि भूत्वा सूत्रे अपि इकः स्थाने इकः इति उक्तत्वात् तत्र इक्कः इति इदानीम् इकः इक् यत् इक् वर्णः अस्ति तत् स्थाने भवति तस्य स्थाने इति तत्र इ अथवा उ अथवा रु अथवा ल इति अस्ति चेत् तत् सः वर्णः स्थाने भवति तत्र यण् आदेशः भवति इदानीं यण् इति अपि प्रत्याहारः इति दृष्टवन्तः यण् इत्युक्ते हा विहाय या वा राल अण् पर्यन्तं तेषु तत्र तत्र किं क्रमेण इक् वर्णेश् वर्णानां स्थाने यण् वर्णानाम् आदेशः भवति क्रमेण क्रमशः इत्युक्ते तत्र इक इ इत्यस्य स्थाने यण् इत्यस्य तत्र या इति प्रथमवर्णः अस्ति अतः इकः इकारस्य यकारः आदेशः भवति तथा एव अग्रे अपि लु इत्यस्य स्थाने वकारः भवति रु इत्यस्य स्थाने रेफः लु लृ इत्यस्य स्थाने लकारः आदेशाः भवन्ति
अपि तत्र अच् तत्र यण् इति प्रथमान्तम् अस्ति अतः एव तत्र
यण् इति प्रथमान्तम् अस्ति अतः तत्र आदेशः यतोहि तत्र पूर्वं पठितवन्तः आदेशः प्रथमान्ते प्रथमविभक्तौ यत् उक्तमस्ति तत् आदेशः वा आगमः वा अथवा नामकरणं वा भवति कदाचित् केवलं नामकरणम् अस्ति किन्तु अस्मिन् सूत्रस्य प्रसक्तेः विषये यण् इति प्रथमान्तम् अस्ति इति कृत्वा तत्र स्थितानां वर्णानाम् आदेशाः भवन्ति अतः एकः यण् अचि इत्युक्ते अच् इति प्रत्याहारस्थवर्णस्य परे पुरतः अच् हा अच् इति अपि च संहितायाम् इति अस्ति इत्युक्ते तत्र संहिता इत्युक्ते अतिशय तत्र अर्धमात्रकालस्य अवधिः इति अस्ति
इति अस्ति समीचीनं भगिनि हा अतः समीचीनं तर्हि तत्र षष्टिविभक्ति इत्युक्ते स्थाने इकः इति षष्टिविभक्त्यन्तं पदम् अतः तस्य स्थाने इकः इति प्रत्याहारेषु विद्यमानानां वर्णानां स्थाने यण् इति प्रत्याहारस्य प्रत्याहारे स्थितानां वर्णानाम् आदेशः भवति यतोहि यण् इति प्रथमान्तम् अस्ति इकः इति षष्ट्यन्तम् अस्ति समीचीनं भगिनि हा अतः तत्र षष्टिविभक्तेः उदाहरणं तत्र तस्य प्रयोगः अपि स्थाने इति इदानीं वयं ज्ञातवन्तः अस्तु समीचीनं
भगिनि इको यणचि इति अस्ति महोदय पदम् इको इकः भवति न तत्रापि सन्धि भवति वा महोदय
आं भगिनि नाम इको इत्युक्ते तत्र इकः इकः यणचि इकः तत्र विसर्गस्य स्थाने ओकारः तत्र विसर्गसन्धि भूत्वा तत्र इको इति भवति तर्हि तत्र सूत्राणाम् अवगमनार्थमपि व्याकरणस्य ज्ञानम् आवश्यकम् तत्र यदि कोऽपि चिन्तयति अस्तु अहं संस्कृतव्याकरणम् तत्र पठामि प्रथमतया अष्टाध्यायी पठामि तेन अहं व्याकरणम् अवगच्छामि तत्र किं करोति व्याकरणस्य आवश्यकता पूर्वं भवेत् अष्टाध्याय्यः तत्र पठनार्थम् अतः तत्र अपि सन्धिः अस्ति भगिनि अतः इकः इति इक् इति तस्य प्रातिपदिकम् इति चिन्तयतु इक् इति प्रातिपदिकम् अस्ति चेत् तत्र भवत् इति प्रातिपदिकं
भवतः
तथैव इक् इति स्थाने तस्य षष्टी एकवचनमस्ति इकः इति एतादृशं बहुत्र भवति अतः तत्र इकः अच तत्र एतत् सर्वं षष्ट्यन्तम् इति ज्ञातव्यम् अस्ति
तत्र अचि इति सप्तम्यन्तम् एव अस्ति महोदय
अचि इति सप्तम्यन्तं तदपि यथा भवत् शब्दस्य भवति इति अस्ति तथैव अच् इति शब्दस्य सप्तमी प्रथम एक प्रथम सप्तमी विभक्ति एकवचनम् अचि
तत्र पूर्वकार्यं भवति
अतः तत्र अचि इति तत्र पूर्वकार्यं नाम कार्यस्य अनन्तरं भवति तदपि तत्र क्लेशदायकमस्ति तत्र पूर्वकार्यं परकार्यम् इति तत्र पूर्वकार्यम् इत्युक्ते यस्य पूर्वम् अथवा यस्मात् पूर्वं कार्यमस्ति परकार्यम् इत्युक्ते तत्र यस्य अनन्तरं कार्यमस्ति तर्हि तत्र सप्तमीविभक्तेः इत्युक्ते तत्र द्वितीयपदं तत्र सन्धिकार्ये प्रथमपदं द्वितीयपदम् अस्ति खलु, तत्र प्रथमपदस्य अन्तिमवर्णः द्वितीयपदस्य आदिमवर्णः, तत्र सप्तमीविभक्तिः इत्युक्ते द्वितीयपदस्य प्रथमवर्णः, पञ्चमीविभक्तिः इत्युक्ते प्रथमपदस्य अन्तिमवर्णः. तत्र परकार्यम् इत्युक्ते तत्र हा अस्तु तर्हि अग्रे तत्र वेदभगिनी अग्रे भवति.
आं महोदय, प्रथमविभक्तिः इत्युक्ते आदेशः, आगमः, नामकरणं. सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने. अस्तु, तत्र प्रथमविभक्त्यन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत् तर्हि सः प्रथमा विभक्त्यन्तः वर्णः आयाति, किन्तु अपरस्य वर्णस्य स्थाने इति न. अतः तस्य नाम आगमः. अन्यत्र प्रथमाविभक्ति नामकरणस्य सूचिका. एकनिमिषं महोदय, क्षम्यता. प्रथमाविभक्तिः इत्युक्ते आदेशः, आगमः, नामकरणम् इति दत्तं. तत्र यत्र सूत्रे वर्णस्य प्रथमाविभक्तिः भवति सः षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने यदि आयाति चेत् तत्र किं वदामि, आदेशः इति वदामि. यत्र तादृशी स्थितिः नास्ति, परन्तु सूत्रे षष्ठीविभक्त्यन्तवर्णो नास्ति चेत् तत्र नास्ति चेत् तर्हि सः प्रथमविभक्त्यन्तवर्णः आयाति चेत् तद् किन्तु
नाम तत्र सः वर्णः आगच्छति एव,
आगच्छति तत् तद् अपि च षष्ट्यन्त षष्ठीविभक्त्यन्तवर्णः नास्ति चेत् तद् स्थित्यां तस्य नाम भवति आगमः. प्रथमाविभक्तिस्य नाम आगम इति उच्यते.
किमर्थं तत्र प्रथमाविभक्तिवर्णः आगच्छति किन्तु
आम्
अन्य कोऽपि वर्णः न
घटति
इति नास्ति, अतः तत्र आगमः इति भवति.
तस्य नाम नाम आगमः अस्ति. अन्यत्र प्रथमा विभक्ति अस्ति चेत् तस्य नामकरणम् अस्ति, नामकरणस्य सूचिका केवलं नामकरणं ज्योति
नामकरणं. हा समीचीनं, नाम अन्यत्र प्रथमविभक्तिपदम् अस्ति चेत् केवलं नामकरणम् इति भवति. तत्र
नामकरणम् इति वक्तुं शक्यते.
आदेशः आगमः नास्ति चेत् प्रायशः नामकरणम् इति
इति
भवति. अस्तु समीचीनं.
आदेशः
तत्र
इको यणचि, इक् स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तं. तत्र इकः स्थाने षष्ट्यन्तम् इत्युक्ते स्थाने षष्ट्यन्तं सूचयन्ति इकः, तदेव तत्र प्रथम यत् वर्णः अस्ति तद् इकः स्थाने आयाति, तदेव तद् आदेशरूपेण आयाति इति ज्ञातुं शक्यते.
तर्हि तत्र कस्य प्रथमविभक्तिः, कस्य षष्ठीविभक्तिः अत्र सूत्रे इको यणचि इति सूत्रे?
इको यणचि सूत्रे इकः इत्युक्ते स्थानी षष्ट्यं षष्ट्यन्तं, यण् इत्युक्ते प्रथमान्तं यणः.
समीचीनम्. अतः तत्र यण् इति एव तत्र आदेशः, आदेशः तत् सः आगमः नास्ति यतोहि षष्ट्यन्तपदम् अस्ति
अस्ति
सूत्रे अस्ति सूत्रे अस्ति अपि न एतद् अपि तत्र नामकरणमपि नास्ति
नास्ति
केवलम् आदेशः एव एव अस्ति. समीचीनं भगिनि. हा अस्तु, अन्य कोऽपि इदानीं पठेत् तर्हि समीचीनं भगिनि. अस्तु अग्रे, हा उषा भगिनी अग्रे.
आं महोदय आगमः आगमः इत्युक्ते किम् इति दत्तमस्ति लुङ् लङ् लृङ्श्च वडु धातः लुङ् लङ् लृङ्च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति लुङ् लङ् लृङ्क्षु सप्तम्यन्तम् अट् प्रथमान्तम् उदात्तः प्रथमान्तम् अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु
तत्र आगमः इति दत्तमस्ति आगमः इत्युक्ते तत्र किं भवेत् तत्र
नूतनवर्णः
आगच्छति किन्तु स्थानि इति स्थानीवर्णः गच्छति इति नास्ति स्थानी एव नास्ति षष्ट्यन्तपदं सूत्रे न भवेत्
न भवति
अत्र तत्र किं किम् अस्ति तत्र
लुङ्लकार लङ्लकार लृङ्लकार लृङ्लकारे च परे
क्षु इति अस्ति तत्र
क्षु
लुङ् लङ् लृङ्क्षु इति अस्ति चेत् तत्र क्षु
परन्तु
लृङ्क्षु इति पदं लुङ् लङ् लृङ्क्षु इति पदं क्षु इति किं सूचयति
सप्तम्यन्तं
सप्तमी विभक्ति सूचयति खलु
आं महोदय परन्तु तत्र प्रथमवाक्ये लुङ् लङ् लृङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति अनन्तरं दत्तमस्ति लुङ् लङ् लृङ्क्षु ओ सप्तम्यन्तं
बहुवचनं
नाम तत्र लुङ् लङ् लृङ्क्षु तदनन्तरं
अट् प्रथमं
क्षु यकारः तत्र क्षुभु बुडात् बुडुदातः इति अस्ति खलु
षुडुदात्तः उकारस्य स्थाने बकार आयाति उदात्तः
तर्हि तत्र वयं जानीमः खलु क्षु इति अस्ति अन्तिमवर्णः उकारः तत्र उकारान्तपदस्य अन्यपदेन योजनेन वकारः आगच्छति चेत् तत्र अकारः अस्ति खलु तत्र अतः तत्र तत्र लुङ् लङ् लृङ्क्षु
अट् उदात्तः
अट् उदात्तः इति अतः तत्र पदत्रयमस्ति तर्हि तर्हि खलु
इत्युक्ते लुङ् लङ् लृङ् लकारे न महोदय
न भगिनि लुङ् लङ् लृङ्क्षु इति एकं पदम् अस्तु सूत्रे
इत्युक्ते
सूत्रमस्ति खलु न अर्थः पश्यामः अर्थः कः इति किन्तु प्रथमतया किं सूत्रे किम् अस्ति इति प्रथमतया पश्यामः न एतत् सर्वम् अनन्तरं केवलं यत् साक्षात् भवती पठितवती तस्य पदस्य पदच्छेदनं करोतु नाम लुङ् लङ् लृङ्क्षु तदनन्तरम्
अट्
तत्र बकारः अस्ति खलु बकारः अस्ति अतः तत्र अट् डकारः डुदात्तः इति अस्ति तर्हि डुदात्तः इत्युक्ते तत्र उदात्तः अपि तत्र अडु तत्र वडु इति अस्ति तद् अट् इति भवति
अट्
अतः लुङ् लङ् लृङ्क्षु इति एकं पदम्
अट् इति
अट् इति एकं पदम् उदात्तः इति तृतीयं पदं खलु इति अस्ति खलु
आं महोदय अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु
इति अस्ति अस्तु इदानीं लुङ् लङ् लृङ्क्षु इति सप्तमी विभक्त्यन्तपदमस्ति खलु
आं महोदय अट् प्रथमान्तम् उदात्तः
अट् प्रथमान्तम् उदात्तः अपि प्रथमान्तम् तत्र प्रथमान्तम् अस्ति चेत् तत्र किं भवति
आदेशः वा आगमः वा नामकरणं भवति
अपि कदा आदेशः भवति यदि
षष्ट्यन्तं
पदं सूत्रे अत्र षष्ट्यन्तं पदम् अस्ति वा
तत्र नास्ति
तर्हि आदेशः न भवति आगमः वा नामकरणं भवितुम् अर्हति
अर्हति
अत्र अत्र के वदन्ति आगमः एव अतः तत्र सूत्रस्य अर्थः किमस्ति लुङ् लङ् लृङ् च परे चेत् परे इत्युक्ते तत्र क्षु इति सप्तमीविभक्त्यन्तम् अस्ति तत्र सप्तमीविभक्त्यन्तस्य अर्थः इत केवलम् अत्र उपरि दत्तमस्ति पूर्वकार्यं पूर्वकार्यं नाम कार्यस्य अनन्तरं भवति इति द्वितीयपदस्य आदिमवर्णः
द्वितीयपदस्य आदिमवर्णः
हा तत् भवति सप्तमीविभक्ति विभक्त्यन्तपदं तर्हि तत्र लुङ् लङ् लृङ् क्षु इत्युक्ते तत्र लुङ् लङ् लृङ् च परे चेत् नाम लकारस्य तत्र प्रत्ययः तत्र प्रत्ययः अस्ति खलु लकारस्य प्रत्ययः प्रत्ययः वा टि प्रत्ययः इति तद् अग्रे भवति चेत् तत्र आङ्गस्य अट् आगमः
भवति
भवति इति अर्थः अत्र अस्ति इदानीं तत्र ताद् यथा तत्र व्याकरण एतावत् व्याकरणज्ञानम् अस्माकं नास्ति इति चिन्तनं तत्र केवलं तत्र उदाहरणार्थं तत्र आगमः भवति यतोहि तत्र षष्ट्यन्तपदं नास्ति सूत्रे अतः आदेशः न भवति आगमः अस्ति तत्र किं सूत्रस्य साक्षात् अर्थः कः इति इदानीं तस्य अवगमनार्थं किं तत्र किमपि न कर्तुं शक्नुमः अग्रे गत्वा कथम् एतत् सर्वं ज्ञास्यामः किन्तु इदानीं केवलम् आगमः अत्र अस्ति इति तावदेव तेन पर्याप्तम् अस्ति अस्तु समीचीनम् अस्तु अग्रिमं
दत्तमस्ति अकारयोगः पट् धातुः योगः अयोगः तकारः पठति इति पट् इति धातुः अस्ति लङ् लकारे लट् लकारे पठति इति भवति लङ् लकारे अपठत् इति भवति पट् पूर्वं लङ् लकार अस्ति इति कृत्वा अट् आगमः भवति आगमरूपेण अकारस्य अकारः दृश्यते तत्र
इति चिन्तयामः अस्तु समीचीनम् अस्तु अस्तु अग्रे तत्र उमामीनाक्षी भगिनी अस्ति वा स्वागतवती अस्तु तर्हि तत्र निवेदिता भगिनी अग्रे पठति वा
नामकरणं सुप्तिगन्तं पदं प्रथमाध्यायस्य चतुर्थपादः चतुर्दशसूत्रे सुबन्तं च टिङ्गन्तं च पदसंज्ञको भवतः इत्युक्ते सुबन्तानां टिङ्गन्तानां च पदसंज्ञा भवति सुप्तिगन्तं प्रथमान्तं पदं प्रथमान्तम् राम अधिकं सु रामः रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति सुप् अन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा तस्य पदसंज्ञा भवति वद वत् अधिक अ अधिक्ति वदति वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति तिङन्ते यस्य सः तिङन्तम् तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति सुप्तिगन्तं पदं सुबन्तं च तिङन्तं च पदसंज्ञको भवतः सुबन्तं सुप्रत्ययस्य कृते सुबन्तम् इति पदम् उपयुक्तम् पदस्य उपयोगः करोति शब्दपदस्य अन्ते यदि सु इति सुप्रत्ययः अस्ति तदा सुबन्तम् यदि धातोः अन्ते ति इति तिङ्प्रत्ययः अस्ति वा कोऽपि तिङ्प्रत्ययः अस्ति तदा तिङन्तम् इति वदति.
समीचीनं. समीचीनं भगिनि. तर्हि तत्र नामपदस्य निर्माणे सुप्रत्ययस्य योजनं, क्रियापदस्य निर्माणे तिङ्प्रत्ययस्य,
तदा सुबन्तं, यस्यान्ते तिङ् अस्ति तदा तिङन्तम्,
तिङन्तम् इति अस्ति. अपि अत्र सूत्रे सुप् तिङन्तं पदम् इति अस्ति. तत्र सुप् तिङन्तम् इति तत्र विभक्ति का?
सुप् तिङन्तं द्वितीया अस्ति वा?
न न न,
सुप्
तिङन्तम् इति प्रथमान्तम्, अत एव उक्तं. भवत्या पठितं खलु
सुप्तिगन्तं पदम्? आम् आम्, प्रथमाविभक्ति अस्ति. सुप्तिगन्तप्रथमाविभक्ति अस्ति. सुप्तिगन्तमपि प्रथमाविभक्तिमध्ये अस्ति, पदमपि प्रथमाविभक्तिमध्ये अस्ति.
अत्र तत्र किम् अस्ति? विशेषणविशेषभावः इति चिन्तयतु, अथवा तत्र विवरणं. पदम् इत्युक्ते किं? पदम् इत्युक्ते सुप्तिङन्तं नाम अत्र नामकरणं. यत् सुप्तिङन्तम् अस्ति तस्य नामकरणमस्ति पदम्. यस्य अन्ते सुप्रत्ययः अस्ति अथवा तिङ्प्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अतः तत्र पदम् इत्युक्ते सुप्तिङ्गन्तं सुबन्तं पदम् अथवा तिङन्तं पदं, द्वयमपि पदमेव इति अत्र नामकरणम् अस्ति. सुप्तिङन्तं पदम् इति नामकरणं सूत्रमस्ति. तत्र आदेशः नास्ति, आगमः नास्ति, केवलं नामकरणमेव अस्ति अत्र.
यत्र विभक्तेः उपयोगं न भवति तदा पद इति संज्ञा अस्ति खलु?
न न, यत्र प्रथमाविभक्ति
शब्दमध्ये भेदः अस्ति खलु? न न, प्रातिपदिकं तथा पदमध्ये भेदः अस्ति.
प्रातिपदिकं पदं नास्ति व्याकरणे. व्याकरणे प्रातिपदिकम् अथवा केवलं धातुः पदं नास्ति. अतः तत्र केवलं राम इति पदं नास्ति. रामः इति पदमस्ति, रामे इति पदमस्ति, रामस्य इति पदमस्ति, वद् इति पदं नास्ति, वदति, वदामि, एतत् सर्वं पदमस्ति. अतः भेदः. समीचीनम्. अस्तु अग्रे तत्र पल्लवीभगिनी अग्रे.
सप्तमी विभक्ति पूर्वकार्यं. सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टता क्षम्यतां निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः. नाम निर्दिष्टं कार्यं तस्मात् पूर्वमस्ति. उदाहरणम् इको यणचि, अत्र अचि इति पदं सप्तमी विभक्त्यन्तमस्ति. तर्हि यत्किमपि कार्यं करणीयं तत् निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः. अच् अच् इति परं स्थितः अस्ति इति.
नाम तत्र यदा सन्धिकार्यम् इति चिन्तयामः, तत्र प्रथमवर्णः भवति, द्वितीयवर्णः भवति खलु?
अग्रे
सन्धिकार्यं यदि सन्धिकार्यं भवति तत्र, नाम तत्र यथा तत्र यद्यपि इति, तत्र यदि योगः अपि यद्यपि इकारः अस्ति, अकारः अस्ति खलु?
आम्, तर्हि अच्वर्णः परे स्थितः अस्ति.
परे स्थितः नाम द्वितीयवर्णः इति एव. तत्र सप्तमी अस्ति चेत् तत्र कार्यस्य अनन्तरं, पूर्वकार्यं नाम यस्मात् पूर्वं कार्यमस्ति. कार्यस्य पूर्वम् इति पूर्वकार्यं नास्ति. यस्मात् पूर्वं कार्यमस्ति तद् पूर्वकार्यं.
सप्तमी
विभक्ति विभक्त्यन्तं भवत् तेन तस्य निर्देशः भवति. तत्र
इकस्थाने यण् आदेशः भवति, अचि परे इति सूत्रं सूत्रस्य
अचि परे इति तर्हि तत्र इकः इति स्थाने इकः इति स्थाने नाम इकः वर्णस्य स्थाने तस्य स्थाने तत्र आदेशः भवति आदेशः भवति खलु यतोहि यण् इति प्रथमाविभक्त्यन्तं पदम् अस्ति खलु इकः इति षष्ट्यन्तम् अस्ति तस्य स्थाने यण् इति तस्य आदेशः भवति कदा अचि
अचि
यदा अच् वर्णः अग्रे अस्ति नाम तत्र द्वितीयवर्णः अच् वर्णः अस्ति चेत् इक् वर्णः प्रथमतया भवेत् तदनन्तरम् अच् वर्णः भवेत् इकः इकः इति स्थाने तस्य स्थाने यण् इति आदेशः कदा अच् यदि अग्रे भवति तत्र परे नाम अग्रे नाम द्वितीयवर्णः सन्देहे द्वितीयवर्णः नाम द्वितीयपदस्य आदिमवर्णः अच् अस्ति चेत् सप्तमविभक्त्यन्तं नाम द्वितीयवर्णस्य प्रथमवर्णः तदेव तस्य निर्देशः नाम सप्तम्यन्तम् इकः यण् अचि तत्र संहितायाम् इति तदपि सप्तमविभक्त्यन्तम् अस्ति किन्तु तद् साक्षात् सूत्रे नासीत् खलु तत्र अनुवृत्तिसहितं सूत्रम् अतः तत्र तस्य सप्तम्यन्तम् अस्ति किन्तु तस्य अर्थः किञ्चित् भिन्नः भवति केवलं यत् सूत्रे अस्ति तस्य एव तत्र एतादृशविभक्ति अर्थः भवन्ति अस्तु अग्रे
पञ्चमी विभक्तिः परकार्यं सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वस्थितः इत्यर्थः नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति पञ्चम्यन्तं यत् पदमस्ति सूत्रे कार्य तस्य पूर्वं करणीयम्
न न कार्यात् पूर्वं स्थितः वर्णः तद्
कार्यात् पूर्वं स्थितः वर्णः तत्र
तत्र समयस्य नास्ति केवलं स्थानस्य एव तत्र कार्यं कुत्र भवति तस्मात् पूर्वं भवति चेत् तत्र परकार्यं यस्य परं कार्यमस्ति अथवा कार्यं तस्मात् परम् अस्ति नाम प्रथमतया परकार्यं भवति तदनन्तरमेव कार्यं भवति पञ्चविभक्तिः अस्ति चेत् तत्र किं भवति तत्र उदाहरणार्थं तत्र दत्तमस्ति
रसाभ्यां नोणः समानपदे रेफशकाराभ्याम् उत्तरस्य णकारस्य णकारादेशौ भवति समानपदस्थौ चेदैव निमित्तनिमित्तिनौ भवतः रसाभ्यां पञ्चम्यन्तं नः षष्ठ्यन्तं णः प्रथमान्तं तर्हि पञ्चम्यन्तम् अस्ति रेफ वा षकार अस्ति तर्हि तस्य परे यदा नकारः आगच्छति षष्ठ्यन्तं नकारस्य स्थाने णकार आदेशः करणीयं प्रथमन्तमस्ति णकार किं करणीयं
समीचीनं तर्हि णकारस्य आदेशः अत्र भवति इति समीचीनम् अपि तत्र ऋषाभ्याम् इति पञ्चम्यन्तमस्ति नाम तत् प्रथमतया आगच्छति तदनन्तरमेव नकारः आगच्छति
तत् नकारस्य
स्थाने नकारस्य आदेशः भवति
वर्ण अस्ति तर्हि रसाभ्यां नूणः समानपदे इति सूत्रेण नकारस्य णकारः भवति तर्हि वर्ण इति सिद्धरूपं भवति
इति अस्ति समीचीनं तर्हि तत्र रेपः
नकारस्य
रेपः नकारात् पूर्वम्
अस्ति
अतः तत्र कार्यं कुत्र भवति तत्र कार्यं रेपः अपि तत्र नकारस्य स्थाने तत्र कार्यं स्थान तत्र नकारस्य स्थाने नकारः आगच्छति तस्मात् पूर्वम् अस्ति रेपः अतः एव तत्र कार्यात् कार्यात् पूर्वम् अस्ति इति कृत्वा तत्र नाम कार्यं तस्मात् परम् अस्ति इति कृत्वा तत् परकार्यं पञ्चमविभक्त्यन्तं परकार्यं तस्मात् परं कार्यमस्ति नाम तदनन्तरमेव तत्र यत् यत्र किमपि तत्र परिवर्तनं भवति परिवर्तनस्थानम् अग्रे अस्ति चेत् तस्य पदस्य
सप्तमी
पञ्च नाम हा अस्तु नाम
अग्रे
स्थानमस्ति स्थानात् पूर्वम् अस्ति चेत् पञ्चमविभक्ति स्थानात् अनन्तरम् अस्ति चेत्
सप्तमीविभक्ति
इति अस्ति समीचीनम् अस्तु अग्रे समीचीनम् अग्रे तत्र शोभा भगिनी अग्रे
महोदय द्वे निमिषाभ्याम् अनन्तरं पठामि क्षम्यतां
धन्यवादः चिन्ता मास्तु वेदा भगिनी अग्रे
आं महोदय तृतीया विभक्तिः संयोजनं सूत्रे तृतीया विभक्ति इत्युक्ते संयोजनं सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परमपि अर्हति परन्तु अयं तृतीय विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्
नाम तृतीयविभक्त्यन्तपदं तत्र
केवलं संयोजनम् आदेशः नास्ति
संयोजनम् अस्ति संयोजनम् अस्ति इति अस्ति अस्तु
स्तोः चुनाच्छुः सकारस्य तवर्गस्य च स्थाने स्तोः षष्टिविभक्त्यन्तं स्थाने षकारस्य च वर्गस्य च आदेशः भवति षकारस्य च वर्गस्य च योजनेन स्तोः षष्ट्यन्तं चुना तृतीयान्तं शुः प्रथमान्तं तत्र स्तोः स्थाने शुः शुनाश्चुः संहितायां तत्र पूर्वकार्यमस्ति पूर्वकार्यम् अन्यत् योगः च योगः अन्यच्च
भगिनी एकनिमिषं तत्र यद् पठितवती तस्य किञ्चित् विवरणं करोतु
सकारस्य तवर्गस्य च स्थाने षकारस्य च वर्गस्य आदेशः भवति श्चुः इति प्रथमान्तं स्तोः इति षष्ट्यन्तं तदेव तत्र सकारतकार सकारस्थाने अपि च तवर्गस्य स्थाने षकारः अपि च वर्गः आयाति चुना इत्युक्ते किं चुना इत्युक्ते तृतीयान्तं तृतीयान्तम् इत्युक्ते तस्य योजनं भवति स त तवर्ग अपि च ष च वर्ग तस्य योजनं भवति यत्र पदे पदे अस्ति तत्र तस्य योजनं भवति तत् किमर्थं जानाति चुना इति पदेन चुना इति तृतीयान्तं पदमस्ति तत् सूचयति तत्र वर्णन वर्णे वर्ण वर्णानां मेलनं भवति इति तत् सूचयति तदेव
सकार एकनिमिष तत्र किञ्चित् तत्र स्तोः इति न स्तोः स्तोः इति षष्ट्यन्तं तस्य अर्थः कः
स्थानि
स्थानि अस्तु स्तोः इति स्थानि अस्ति स्तोः इति तत्र प्रथमविभक्तिरूपं किम् अस्ति
चुः
न न स्तोः इति तस्य
प्रथमविभक्ति स्तः 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 षष्ठी स्तः अस्ति चेत् स्त इति वा स्त
हा प्रायश स्थ इति भवेत् अस्तु तत्र न तत्र स्तुः
स्तुः
स्तुः हा उकारः
सकार सकार तवर्गीय सकार तवर्गीय तु
तत्र
गुरोः वत्
गुरोः वत्
स्तु स्तुः इति आयाति न तत्र स्तोः किमर्थम् आयाति स्तुः
गुरुः
हा गुरुः परन्तु
गुरुः गुरुः पदस्य षष्टिरूपं किमस्ति
गुरोः करेक्ट्
तत्र उकारः नास्ति खलु ओकारः एव अस्ति खलु
स्तुः स्तु इति प्रातिपदिकं प्राबब्लि स्तु
तु इति अस्ति एव अस्ति चेदेव तत्र स्तवर्गस्य अतः एव तत्र यत् भवती पठितवती खलु सकारस्य तवर्गस्य इति तर्हि हा तर्हि सकारस्य तवर्गस्य इति एव तत्र स्थाने
खलु
तस्य स्थाने
स्तुः इति आदेशः भवति
स्तुः इति यथा स्तुः तथैव स्तुः खलु शकारः अपि च वर्गः खलु
आदेशः भवति
आदेशः भवति कदा
परन्तु
तत्र कथं जानीमः तस्य शकारस्य च वर्गस्य आदेशः भवति यतोहि आदेशस्य विभक्ति आदेश्य निर्दिष्टपदस्य तत्र
आदेशस्य विभक्ति अस्ति प्रथमान्तम्
अत्र प्रथमान्तपदं किम् अस्ति
चुः
श्चुः श्चुः खलु
आम् आं महोदय
श्चुः
शकारस्य स्थाने शकारः पालदेशकारः
किन्तु साक्षात् पदमस्ति श्चुः
आम्
अस्तु समीचीनं श्चुः अपि तत्र पुनः अस्ति श्चुना श्चुना इति अस्ति तत्र श्चुना इति पदस्य विभक्ति का
तृतीया
तृतीया अस्तु तर्हि
तृतीया
स्तोः स्थाने
न न सकारस्य स्थाने शकारायाति तकार तवर्गस्य स्थाने चकारायाति यदि चुना इत्युक्ते शकार किं वदामि तत् संयोजनम् इति वदति तत् उदाहरणं दृष्ट्वा वदामि महोदय तत्
अस्तु अस्तु अस्तु
उदाहरणमस्ति कुत्र उदाहरणं न दत्तं कोऽपि
अधोभागे एव दत्तमस्ति खलु भगिनि
पूर्वकार्यम् अन्यत् योग च अन्यच्च तद् नास्ति तद्वा
भवती एव वदतु
परकार्यं न तद् नास्ति तद् उदाहरणं
न तत्र चुना इति तृतीया विभक्तौ भवति तृतीया इत्यस्य पूर्वं वा परं वा कार्यं भवति तत्र चुना इति अस्ति खलु चुना इत्यनेन
परकार्यमपि भवितुम् अर्हति
भवति
पूर्वकार्यम् अन्यत् योगः च तत्र तवर्गस्य वर्णः अस्ति परे च वर्गः अस्ति तत्र संयोजनेन तकारस्य स्थाने च वर्ग आयाति अन्यच्च इति आम् सम्यक् अस्तु तत्र अन्यत् योग च तकार वर्णः अस्ति स्तोः इत्यत्र तवर्गस्य वर्णः अस्ति परे अस्ति च श्चुः चकारस्य वर्णः अस्ति चकारवर्णः अस्ति तत्र संयोजनेन तत्र तकारचकारसंयोजनेन तकारस्य स्थाने किम् आयाति श्चुः इति आयाति तत्र तकारस्य स्थाने चकार आयाति तदेव तत्र अन्यच्च इति अन्तिमरूपं निष्पद्यते
समीचीनं भगिनि तर्हि तत्र तकारस्य चकारः तकारस्य स्थाने चकारः आगच्छति तद् तत्र आदेशः भवति कथं जानीमः आदेश नाम तत्र योजनेन शकारस्य च वर्गस्य योजनेन इति तत्र तृतीय इति अस्ति अत्र श्चुना इति तृतीयान्तम् अस्ति तस्य एव तत्र संयोजनं भवति
इति परकार्यमस्ति चेत् यत्र यज् योगः नः जकार च वर्गस्य वर्णः अस्ति जकार परन्तु न तकार तवर्गस्य वर्णः अस्ति नकार तत्तधन तत्र परकार्यं भवति इत्युक्ते नकारस्य स्थाने नकारस्य स्थाने किं वर्णम् आयाति तत्र च ङकार च वर्गस्य अनुनासिकवर्ण आयाति तत्र यज् योगः ञकारः योजनेन तत्र मेलनं भूत्वा तत्र यज्ञः इति रूपम् आयाति.
समीचीनं भगिनि. अतः तत्र प्रथमे उदाहरणे प्रथमपदस्य अन्तिमवर्णस्य परिवर्तनम्, द्वितीये उदाहरणे द्वितीयपदस्य आदिमवर्णस्य परिवर्तनं.
आम् महोदय, तदेव
परिवर्तनं भवति. समीचीनं. अतः
निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परमपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. तदेव यत् पूर्वकार्यं परकार्यम् अस्ति, परन्तु तृतीया विभक्तन्तं चुना इति दत्तं, तदेव तत्र संयोगः भवति. शकारस्य सकारस्य स्थाने शकारः, तकारस्य स्थाने तवर्गस्य स्थाने च वर्गः भूत्वा तत्र संयोगः भवति
इति अस्ति. समीचीनम्. अतः तत्र एतावत् वयं तत्र किं दृष्टवन्तः, तत्र आदेशः आदेशः आगमः लोपः कार्यत्रयम्
अपि च
तत्र सन्धिविषये तत्र मुख्य तत्र कार्याणि कार्यत्रयं मुख्यकार्यत्रयमस्ति तत्र आदेशः आगमः लोपः. अपि तत्र वयं जानीमः तत्र सन्धिसन्दर्भे तत्र प्रथमपदस्य अन्तिमवर्णः द्वितीयपदस्य आदिमवर्णः तयोः मेलनेन एव तत्र सन्धिः भवति. तत्र तयोः मध्ये किमपि कार्यं तत्र आदेशः वा आगमः वा लोपः किमपि कार्यं भवेत्, अतः तत्र कार्यस्य परम् अथवा कार्यस्य पूर्वम् इति तत्र किं किं भवेत् इति निर्देष्टुं तत्र विभक्तेः प्रयोगः भवति. तत्र सप्तमीय भवति चेत् साधारणतया सप्तमीविभक्त्यन्तपदं किं भवति, द्वितीयपदस्य नाम सन्धिकार्ये कार्यस्य मध्ये प्रथमं पदं द्वितीयपदम् अस्ति. सप्तमीविभक्त्यन्तं साधारणतया द्वितीयपदस्य आदिमवर्णः आदिमवर्णं सूचयति. अपि तत्र पञ्चमी विभक्तिः अस्ति चेत् तत्र प्रथमपदस्य अन्तिमवर्णं सूचयति साधारणतया. अतः यथा अस्माकम् उदाहरणे तत्र किम् आसीत् तत्र पूर्वकार्यं नाम
पूर्ववर्णस्य अन्ते यत् वर्णः अस्ति,
न तत्र पूर्वकार्यम् इत्युक्ते किमस्ति, पूर्वकार्यस्य
परिवर्तनं भवति न महोदय, पूर्वकार्यं तदेव तिष्ठति, तकारस्य स्थाने कार्यं भवति.
किन्तु पूर्वकार्यम् इत्युक्ते किम् अस्ति,
सप्तमी विभक्ति
तत्र द्वयोः वर्णयोः मध्ये सन्धिः भवति. तत्र पूर्वम् इत्युक्ते तत्र यत्र सन्धिः भवति तस्मात् पूर्वं, परम् इत्युक्ते यत्र सन्धिः भवति तस्मात् परम् इति भवति इति मन्ये. तत्र
भगिनि तत्र नाम पूर्वकार्यम् इत्युक्ते कार्यात् पूर्वम् इति नास्ति भगिनि,
न कार्यात् पूर्वम् इति न, पूर्वकार्यम् इत्युक्ते तत्र
यस्य पूर्वस्थानि
स्थानीः यत्र अस्ति स्थानेः किं तत्र स्थानेः स्थाने एव कार्यं भवति.
स्थानी इति स्थानी तु षष्टिविभक्त्यन्तम् अस्ति, तत्र स्थानी स्थानी इति तस्य निर्देशः षष्टिविभक्त्या कुर्मः खलु. अपि तत्र यत्र कार्यं भवति तस्य अनन्तरं यद् भवति तद् साधारणतया सप्तमीविभक्त्यन्तं भवति.
परन्तु तत्र तद् स्थितिः नास्ति महोदय.
न एकनिमिष भगिनि, नाम पूर्वकार्यम् इत्युक्ते नाम यस्मात् पूर्वं कार्यमस्ति. तत्र कार्यं साधारणतया तत्र सन्धिकार्यमध्ये शोभभगिनि तत्र सन्धिकार्यम् इति चिन्तयामः, प्रथमपदम् अस्ति द्वितीयपदम् अस्ति, कार्यं कुत्र इति चिन्तयामः साधारणतया पदयोः मध्ये खलु, खलु पदयोः मध्ये अतः तत्र प्रथमपदस्य अन्तिमवर्णः द्वितीयपदस्य आदिमवर्णः अथ वर्णद्वयं वर्णद्वयोः मध्ये स्थानं स्वीकुर्मः तत्र कार्यम् इति चिन्तयामः खलु
सत्यं
तर्हि तद् स्थान् तस्मिन् स्थाने कार्यं भवति इत्युक्ते तदनन्तरं यः वर्णः भवति अनन्तरं नाम द्वितीयपदस्य प्रथमवर्णः सः साधारणतया सप्तमी विभक्त्यन्तं भवति सः एव तत्र पूर्वकार्यम् यस्य पूर्वं कार्यं भवति पूर्वं कार्यं भवति तद् पूर्वकार्यम् इति एतस्य विषये मम बहु किमपि क्लेशः आसीत् अतः वदामि किन्तु तत्र पुनः पश्यामः तत्र भगिनी शुभभगिनी भवती एव तत्र पुनः पठतु तत्र यतोहि एतत् सम्यक् रीत्या
हा तत्र इत्युक्ते महोदय मम अवगमनं वदामि सम्यक् वा इति वदतु स्तोः इति तत्र षष्ठीविभक्त्याम् अस्ति सकार तकारयोः तर्हि तत्र सकार अपि तवर्गीयव्यञ्जनानि स्थानी योगिनः स्थानिनः भवन्ति
भगिनि अत्र प्रायशः यदि पश्यामः क्लेशः भवति अतः तत्र यत्र तत्र सप्तमीभक्तिः इति अस्ति तद्
हा इत्युक्ते तत्र अस्मिन् सूत्रे परकार्यमपि भवति पूर्वकार्यमपि भवति किन्तु यत् सप्तमी विभक्तेः अर्थे एव सूत्रं भवति चेत् तत्र पूर्वमेव भवति खलु महोदय
अतः तत्र किन्तु परकार्यं पूर्वकार्यम् इति तस्य अर्थः कः इति तत्र सि इति अस्ति खलु सप्तमीविभक्तिः इति तदेकवारं पठतु तत्र सप्तमीविभक्तिः पूर्वकार्यं
सि इति सप्तमी विभक्तिः पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः यस्य वर्णस्य सप्तमी विभक्तिः इत्युक्ते सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इति अर्थः नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति तत्र सूत्रे यत् यस्य वर्णस्य सप्तमी विभक्तिः इति
नाम पूर्वकार्यम् इत्युक्ते कः अर्थः
हा इत्युक्ते तत्र
नाम कार्यं प्रथमतया आगच्छति तदनन्तरम् एतत् वर्णः वा अथवा वर्णः प्रथमतया तदनन्तरं कार्यं वा इति प्रश्नः
वर्णः भवेत् तत्र कार्यं भवितुं
न प्रथमतया किं तत्र पूर्वकार्यम् इत्युक्ते तत्र दक्षिणतः तत्र वामतः दक्षिणतः गच्छामः खलु लेफ्ट् टु राइट् इति हा तर्हि तत्र प्रथमतया किम् आगच्छति पूर्वकार्यम् इति वदामश्चेत् तत्र प्रथमतया कार्यं तदनन्तरम् एतद् एषः वर्णः वा नाम पूर्वकार्यं वा अथवा पूर्वकार्यं तदनन्तरं कार्यं किम् इति
पूर्वकार्यं तदनन्तरं कार्यम्
इति नास्ति भगिनि अतः एव तत्र पठतु तत्र
इत्युक्ते तत्र एकम् उदाहरणमस्ति
न सूत्रे यस्य वर्णस्य इति
सूत्रे यस्य वर्णस्य
सप्तमी
भवति एकक्षणं पुनः सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इति अर्थः
कार्यात् परं स्थितः पूर्वं स्थितः नास्ति परं स्थितः अस्ति नाम अनन्तरं खलु
हा
तर्हि प्रथमतया कार्यं भवति तदनन्तरमेव पूर्वकार्यमस्ति नाम वामतः कार्यमस्ति दक्षिणतः पूर्वकार्यमस्ति नाम इको यणचि मध्ये भगिनी तत्र अचि इति तत्र सप्तमीविभक्त्यन्तमस्ति खलु हा तर्हि तत्र यण्सन्धेः कार्यं यदा भवति तत्र यदि योगः अपि यद्यपि तत्र अच्वर्णः कुत्र भवेत् द्वितीयपदस्य आदिमवर्णः अच् भवेत् खलु
सत्यं
हा तर्हि तत्र कार्यस्य अनन्तरमस्ति तत् नाम कार्यं द्वयोः वर्णयोः मध्ये भवति इति चिन्तयामश्चेत् कार्यं तर्हि तत्र द्वितीयवर्णः एव तत्र पूर्वकार्यं भवति प्रथमवर्णः परकार्यं भवितुम् अर्हति नाम तत्र मम एतत् केवलं वदामि यतोहि तत्र मम मनसि तत्र पूर्वकार्यं परकार्यम् इति अस्मिन् विषये बहु क्लेशः आसीत् समीचीनं वा अथवा न
हा इत्युक्ते तत्र दलद्वयं भवति इति महोदय सूत्रे तस्य अन्वयः भवति अपि च सम्यक् यत् भवान् उक्तवान्
केवलं केवलं नाम तत्र पूर्वकार्यम् इत्युक्ते नाम कार्यस्य पूर्वम् इति नास्ति
सत्यम्
इति तत्र अहं प्रथमवारं यद् श्रुतवान् पूर्वकार्यम् अस्तु कार्यस्य पूर्वं परकार्यं कार्यस्य परम् इति किन्तु तद् नास्ति तत्र यत् यः वर्णः तत्र हा यस्य यस्मात् कार्यं पूर्वम् अस्ति सः वर्णः अथवा तद् अस्ति तत्र
तत्र स्थाने एव पूर्वं भवति वा
स्थाने एव तत्र परकार्यमस्ति भगिनि
साधारणस्य वर्णस्य सप्तमीविभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इति अर्थः
पूर्वकार्यम् इत्युक्ते
हा अचि इति सप्तमी अस्ति तत् तस्य वर्णस्य सप्तमी भवति सः निर्दिष्टात् कार्यात् परं स्थितः अचि अस्तु तत् वर्णः सप्तमीविभक्तेः वर्णस्य स्थानं परमस्ति निर्दिष्टात् कार्यात् परम् अस्ति
हा नाम तत्र
कार्यं तस्मात् पूर्वमस्ति इति मम
इति अस्ति भगिनि कार्यं तस्मात् पूर्वमस्ति चेत् तत् पूर्वकार्यं भवति
हा इत्युक्ते अचि इति तत्र परम् अस्ति सप्तमीविभक्ति अस्ति यस्य वर्णस्य सप्तमीविभक्ति अचि इत्यस्य सप्तमी सः निर्दिष्टात् कार्यात् परम् अस्ति अपि च निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति
अतः तत्र किम् अस्ति कार्यात् परं पूर्वकार्यमस्ति कार्यात् पूर्वं परकार्यमस्ति कार्यात् परं पूर्वकार्यमस्ति कार्यात् पूर्वं परकार्यमस्ति
निर्दिष्टकार्यं तस्मात् पूर्वम् अस्ति अस्तु
हा इति तत्र डि मध्ये अपि तत्र एकवारं पठतु तदनन्तरं समापयामः डि इति परकार्यम् इति
क्षम्यतां महोदय
पञ्चमे अस्मिन् विषये मम एतावान् क्लेशः आसीत् ततः
पञ्चमीविभक्तिः परकार्यं सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इति अर्थः हा पञ्चमी इत्युक्ते तत्र पुनः यस्य वर्णस्य पञ्चमीविभक्तिः भवति तत्र रसाभ्याम् इति तत्र पञ्चमी एव हा रसाभ्याम् इति पञ्चमी यस्य सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इति इत्युक्ते तस्मात् परं कार्यं भवति तस्मात् परं कार्यं भवति निर्दिष्टं कार्यं तस्मात् परम् इति तदेव तत्र परकार्यं निर्दिष्ट तत्र इत्युक्ते स्थानिनः यस्य वर्णस्य विभक्तिः तत्र विभक्तेः प्रामुख्यता अस्ति इति कृत्वा
सत्यं सत्यं किन्तु भगिनि केवलं तत्र स्थानि इति मास्तु इदानीं केवलं पूर्वकार्यं परकार्यम् इति तर्हि तत्र पञ्चमविभक्तिः इति त्यजतु सप्तमविभक्तिः इति त्यजतु परकार्यम् इत्युक्ते निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः खलु परकार्यम् इत्युक्ते निर्दिष्टात् कार्यात् पूर्वम् इति अर्थः अथवा निर्दिष्टं कार्यं तस्मात् परम् अस्ति परकार्यम् इत्युक्ते निर्दिष्टं कार्यं तस्मात् परम् अस्ति नाम
पञ्चमीविभक्तेः परम्
अस्ति कार्यं
यः वर्णः पञ्चमीविभक्त्याम् अस्ति तस्मात् परं कार्यं परकार्यम् अपि च यः वर्णः सप्तमीविभक्त्याम् अस्ति तस्मात् पूर्वं कार्यं पूर्वकार्यम्
अस्ति अतः तत्र मम मनसि एतदस्ति साधारणतया पञ्चमी प्रथमतया आगच्छति तदनन्तरं कार्यम् अस्ति तदनन्तरं सप्त इति चिन्तयामि यतोहि फैव् कम्स् बिफोर् सेवेन् इति तत् पञ्च इत्युक्ते तत्र परकार्यं तदनन्तरमेव कार्यम् आगच्छति तदनन्तरं सप्तमविभक्त्यन्तं नाम पूर्वकार्यं यतोहि सप्तमविभक्त्यन् पदात् पूर्वं कार्यमस्ति पञ्चमविभक्तिपदात् परम् अतः कार्यम् इति मध्ये स्थापयामि पूर्वं तत्र पञ्चमविभक्त्यन्तपदं भवति नाम पञ्चमविभक्त्यन्तपदं यद् निर्दिशति तत् पूर्वम् अस्ति तदनन्तरं सप्तमविभक्त्यन्तपदं तत्र तेन निर्दिष्टं वर्णः वा किमपि तत् अनन्तरं भवति यतो यथा तत्र इको यणचि तत्र आदौ इकः अस्ति मध्ये कार्यं भवति तदनन्तरम् अचि इति अस्ति खलु हा तत्र इकः षष्टिविभक्त्यन्तम् इति जानामि किन्तु तत्र इकः इति चिन्तयामश्चेत् तत्र पञ्चमी इति चिन्तयामश्चेत् नाम कार्यात् पूर्वमस्ति इति कृत्वा तत् परकार्यमस्ति अचि इति पूर्वकार्यमस्ति तावदेव हा किन्तु एतद् अहं तत् किं बहु क्लेशम् अनुभूतवान् अस्मिन् विषये अतः एव तत्र वारं वारं वदामि तावदेव हा अस्तु समीचीनमेव हा समीचीनमेव अतः एतावत् वयं बहु किमपि अतीतवन्तः अग्रिमवर्गे तत्र व्याख्यानस्य आकृतिः तत्र एतत् सर्वं ज्ञास्यामः तदनन्तरं साक्षात् तत्र तत्र सन्देहे तत्र कार्ये तत्र कथं सूत्रम् आगच्छति इति किञ्चित् परिशीलयामः अस्तु तर्हि तत्र उषा भगिनी तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समर्पयामः
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः नमस्कारः महोदय
नमस्कारः भगिनी